आकाशवाणी संप्रति वार्ताः श्रूयन्ताम् प्रवाचिका साधना शर्मा। प्रथमं मुख्याः वार्ताः। लोकसभा निर्वाचने अन्तिम चरणस्य च मतदानस्य सर्वाणि सज्जतानि सम्पन्नानि। अस्मिन् चरणे सप्तसु राज्येषु एकस्मिन् केन्द्रशासित क्षेत्रे च समेत्य सप्तपञ्चाशत् आसनेषु मतदानं भविष्यति। प्रधानमन्त्रिणः नरेन्द्र मोदिनः भाजपा इति दलस्य नेता केन्द्रीयमन्त्रिणश्च अनुराग सिंह ठाकुरस्य कांग्रेस नेतुः विक्रमादित्य सिंहस्य तृणमूल कांग्रेसस्य च अभिषेक बनर्जी इत्यस्य च भाग्य निर्णयः श्वः ईवीएम यन्त्रे स्थापितो भवेत्। मणिपुर राज्ये जलौघस्थितिः नैरन्तर्येण प्रवर्धते, सहस्रजनाः प्रभाविताः। अद्य विश्व उग्र तांबूल निषेध दिवसः। अपि च भारतीय मुष्टामुष्टि महासंघः बीएफआई इति विश्व मुष्टामुष्टि संघस्य सदस्यतायै सहमतः जातः। इदानीं वार्ताः विस्तरेण। लोकसभा निर्वाचने सप्तमस्य अन्तिम चरणस्य च मतदानस्य सर्वाणि सज्जतानि सम्पन्नानि। अस्मिन् चरणे श्वः सप्तसु राज्येषु एकस्मिन् केन्द्रशासित क्षेत्रे च समेत्य सप्तपञ्चाशत् आसनेषु मतदानं भविष्यति। मतगणना जून मासस्य चतुर्थे दिनांके भविष्यति। अस्मिन् चरणे उत्तरप्रदेशे पंजाबे च त्रयोदश, पश्चिम बंगाले नव, बिहारे अष्ट, ओडिशायां षट्, हिमाचल प्रदेशे चतुर, झारखण्डे त्रि, चण्डीगढ़े एक आसनेषु मतदानं भविष्यति। मतदानं प्रातः सप्तवादनात् प्रारप्स्यते, सायं पञ्चवादनात् वादनं यावत् प्रचलिष्यति। निर्बाधाय पारदर्शिने च मतदानाय निर्वाचन आयोगेन व्यापकानि प्रबन्धानि कृतानि। मतदान केन्द्रेषु आवास आच्छादकः, पेयजलं, शौचालयः, चक्रासन्दिका, विद्युत् एषाम् उचिता व्यवस्था विहिता। प्रधानमन्त्रिणः नरेन्द्र मोदिनः भाजपा इति दलस्य नेता केन्द्रीयमन्त्रिणश्च अनुराग सिंह ठाकुरस्य कांग्रेस नेतुः विक्रमादित्य सिंहस्य तृणमूल कांग्रेसस्य च अभिषेक बनर्जी इत्यस्य च भाग्य निर्णयः श्वः ईवीएम यन्त्रे विद्युत् मतदान यन्त्रे स्थापितो भवेत्। प्रधानमन्त्री नरेन्द्र मोदी अद्य स्वामी विवेकानन्द स्मारके च पञ्चचत्वारिंशत् होराणां ध्यानस्य द्वितीयं दिवसं प्रति अस्ति। असौ ह्यः कन्याकुमारीं सम्प्राप्तवान्। ध्यानमग्नात् पूर्वम् असौ भगवती अम्मन मन्दिरस्य भ्रमणं पूजां च कृतवान्। अवधेयं वर्तते यत् असौ केसरवर्णीय परिधाने ध्यानं कृतवान्, यस्मिन् ध्यानमण्डपे त्रिसप्तति वर्षीयः नेता ध्यानमग्नो भवति। तस्य विषये एवं कथ्यते यत् इदं तत् स्थानमस्ति यत्र स्वामी विवेकानन्दवर्येण 1898 वर्षे ध्यानं कृतम्। ईशः महाभागः तस्मिन्नेव स्थाने सूर्यार्घम् अनुष्ठानं च कृतम्। कन्याकुमारी स्थलं भारतस्य दक्षिणदिशि स्थितं वर्तते। इदं मंगलं स्थानमपि वर्तते, यत्र बंगाल खाती, अरब सागरः, हिंद महासागरश्च परस्परं मिलन्ति। मणिपुर राज्ये जलौघस्थितिः नैरन्तर्येण प्रवर्धते। जलौघेन इम्फाल नगरं कष्टकरं जातम्। साम्प्रतं यावत् त्रय जनाः मृताः, अन्याश्च एकः विलुप्तः। अनया स्थित्या 88,000+ जनाः प्रभाविताः जाताः। सम्पूर्णे स्थले केन्द्रीयबलं, सेना च साहाय्योद्धार कार्येषु संलग्नौ स्तः। प्रभावितान् च जनान् साहाय्य शिविरेषु निश्यतः। संस्कृतवार्तायाः इदं संस्करणम् इदानीम् आकाशवाणीतः प्रसार्यते। समम् एव अयम् कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथवा न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। अद्य वर्ल्ड नो टोबैको डे दिवसः आमान्यते, अर्थात् विश्व उग्र तांबूल निषेध दिवसः, यत्र उग्र तांबूलम् न भक्षणीयं भवति। भीषण आतपे अपचितेः अनन्तरम् अपि देशस्य उत्तर पश्चिम भागेन उष्ण प्रकोपः सह्यते। आकाशवाण्या सह वार्तां कुर्वन् भारत ऋतु विज्ञान विभागस्य वैज्ञानिकः डॉ आर के जैनामणिः संसूचितवान् यत् तापमाने न्यूनतानन्तरं पंजाब भागेषु उष्णलहरी यथावत् एव भविष्यति। हरियाणा, राजस्थान, उत्तर प्रदेश, बिहार, छत्तीसगढ़, उड़ीसा राज्यानां केषुचित् भारत निकारागुआ देशौ अद्य द्विपक्षीय विषयाणां पारस्परिक कल्याणस्य वैश्विक प्रसंगेषु चर्चां विहितवन्तौ। एकस्मिन् अन्तर्जालीय सन्देशे विदेश मंत्री डॉ एस जयशंकर उदीरितवान् यत् निकारागुआयाः विदेश मंत्री डेनिस मानकाडा कोलिन्ड्रेस इत्येषः अद्य दूरभाष माध्यमेन तेन सह वार्तां साधितवान्। दिल्ल्याः न्यायालयः बीबी केयर न्यू बॉर्न अस्पताल आख्यस्य चिकित्सालयस्य स्वामिनम् एकं सह आरोपिणं 14 दिनानि यावत् न्यायिक निग्रहणे प्रेषितवान्। कानिचित् दिनानि पूर्वं अस्मिन् चिकित्सालये भयावह अग्नौ 7 शिशूनां मृत्युः अभूत्। चिकित्सालयस्य स्वामिनं नवीन कीचिंग अत्र कर्तव्ये च सन्नद्धं कर्मचारिणं निज चिकित्सालये अग्निप्रज्वलन कारणात् निग्रहणं कृतम्। जम्मू कश्मीरे प्रशासनम् अद्य क्षेत्रीय परिवहन अधिकारी कठुआयां सन्नद्धं यांत्रिक वाहन निरीक्षकेण सह 6 अधिकारिणः निलंबिताः। ते तत्काल प्रभावेण जम्मू कश्मीरस्य जम्मू परिवहन आयुक्त कार्यालयं सम्बद्धम् अकुर्वन्। अस्माकं जम्मू वार्ताहरेण संसूचितं यत् जम्मू कश्मीरे यः बस दुर्घटना संजाता, राजस्थानस्य उत्तर प्रदेशस्य च 22 तीर्थयात्रिणः मृत्युम् उपगताः, 79 जनाः आहताः। अमेरिका देशीयः राष्ट्रपतिः जो बाइडेन युक्रेनाय अमेरिका द्वारा प्रदत्तान् आयुधान् रूस देशस्य अन्तःस्थिर क्षेत्रेषु आक्रमणाय अनुमतिः प्रदत्ता। संचार सूचनानुसारि खार्कीव क्षेत्रे रूस देशस्य सुदृढ स्थितिं युद्धरणे च युक्रेनस्य प्रतिकूल परिस्थितिम् अवलोक्य निर्णयोऽयं निर्णीतः। दिल्ली उच्च न्यायालयः स्वाति मालीवालस्य उत्पीडन प्रकरणे दिल्ल्याः मुख्यमन्त्रिणः अरविन्द केजरीवालस्य निकटवर्तिनः सहयोगिनः विभव कुमारस्य निग्रहणस्य विरोधस्थां याचिकां संसदः सदस्यैः विधानसभायाश्च सदस्यैः सम्बद्धानां प्रकरणानां श्रवणकर्तारं श्रवणपीठं स्थानान्तरितम्। भारतीय मुष्टामुष्टि महासंघः बीएफआई इति विश्व मुष्टामुष्टि संघस्य सदस्यतायै सहमतः जातः। सदस्यतायाः आवेदनं बीएफआई इत्येतस्य सामान्य सभया अनुमोदितः। अपि च विश्व मुष्टामुष्टि संघस्य कार्यकारी मण्डलेन पुष्टिः भविष्यति। विश्व मुष्टामुष्टि संघः 23-2000 वर्षस्य अप्रैल मासे उद्घाटितः। अस्य उद्देश्यं मुष्टामुष्टि ओलम्पिकस्य केन्द्रे स्थापनम् अस्ति। सिंगापुर बैडमिंटन 24-2000 त्रिसा जॉली गायत्री गोपी चंदनस्य अनयोः भारतीय महिला युगलं किम सो योंग कॉन्ग ही योंग अनयोः दक्षिण कोरियायाः युगलं पादोपांत्य चक्रे 18-21, 21-19, 24-22 अंकानां पुरस्तात् पराजित्य उपान्त्यचक्रे स्वस्थानं स्थापितवत्। स्पर्धेयं 19:00 एकहोरा यावत् प्रचलिता।